एसा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। मन्त्री परिषदः उपवेशेन अस्यैव फाल्गुनस्य त्रयोविंशे दिवसे प्रतिनिधिसभायाः उपवेशस्य आह्वानाय राष्ट्रपतेः समक्षम् परामृष्टम् निर्णीतम् वर्तते। बाल्वाटारवर्तिनी प्रधानमन्त्री निवासे ह्य उपविष्टेन मन्त्री परिषदः उपवेशेन अस्यैव फाल्गुनस्य त्रयोविंशे दिवसे प्रतिनिधिसभायाः उपवेशस्य आह्वानाय परामृष्टम् निर्णीतम् इति भूमि व्यवस्था सहकारी विपन्नता निवारण मन्त्री डा शिवमाया तुम्बहम्फे अज्ञापयत्। राष्ट्रपतिः विद्यादेवी भण्डारी राष्ट्रस्य सामाजिक न्यायेन सह आर्थिक समृद्धिं प्रति अग्रेसरतायाः सन्दर्भे संविधानेन परिकल्पितस्य समाजवादोन्मुखस्य अर्थतन्त्रस्य निर्माणस्य दृशि संलग्नतायै अनुरुणा दि शीतलनिवासस्थिते राष्ट्रपतिभवने निधि प्रतिष्ठानेन ह्य आयोजिते सम्मान समारोहे राष्ट्रपतिः भण्डारी सरल जीवनस्य उच्च विचारस्य च धनिकेन महेन्द्र नारायण निधिना अवलम्बिता निष्ठायाः राजनीतिः सर्वेषां कृते स्मरणीया अस्तीति अवोचत। कार्यक्रमे नेपाली कांग्रेस दलस्य उपसभापतिः निधि प्रतिष्ठानस्य मानार्थम् अध्यक्षश्च विमलेन्द्र निधिः अगदत् जनतायाः स्वामित्वानुभूतेः अभावं यावत् परिवर्तनं स्थायित्वं नाप्नोतीति हेतोः वर्तमानस्य राजनीतिक विवादस्य समाधानं संसदि एव अन्वेष्टव्यम्। प्रधानमन्त्रिणा केपी शर्मा ओलिना नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य संसदीय दलस्य प्रतिनिधिसभा पक्षीय मुख्य सचेतक पदे विशाल भट्टराई नियुक्तो वर्तते। प्रधानमन्त्रिणा ओलिना खोटाङ जनपदात् निर्वाचितो भट्टराई ह्य प्रमुख सचेतक पदे नियुक्तोऽस्ति। प्रधानमन्त्रिणा ओलिना नेकपा संघीय संसदीय दलस्य विधानस्य अनुसारेण भट्टराई मुख्य सचेतक पदे नियुक्तो वर्तते। पूर्वं संसदीय दलस्य मुख्य सचेतक पदे देव प्रसाद गुरूङ आसीत्। उप प्रधानमन्त्री नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य सचिवालय सदस्यश्च ईश्वर पोखरेल कथयति प्रधानमन्त्री केपी शर्मा ओली संसदी सन्नद्धतया प्रतिकरिष्यति। अनेरास्वभ्य संगठनस्य बृहन् मेलनम् ह्य काष्ठमण्डपे सम्बोधयन् असौ अवोचत् प्रधानमन्त्री संसदं प्रतिकृत्य नेपाली जनतां प्रति स्वस्य लोकतन्त्रस्य प्रतिबद्धतां प्रमाणीकरिष्यति। असौ सामर्थ्यं सद् अविश्वासस्य प्रस्तावम् आनेतुं नेकपा दलस्य अपरं समूहम् आह्वयति। कार्यक्रमे ऊर्जो जल स्रोत सिंचन मन्त्री टोप बहादुर राय माझी अकथयत् ओली नेतृत्वस्य नेकपा दलं प्रत्येकं परिस्थितिं प्रतिकर्तुं तत्परं वर्तते। नेपाली कांग्रेस दलेन प्रतिनिधिसभायाः पुनस्थापनायाः पश्चात् उपवेक्ष्यमाणं संसद अधिवेशनम् नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य आगामिनं गतिविधिञ्च अन्वेव सत्ता समीकरणस्य विषये निर्णेष्यते इति ज्ञापितमस्ति। बुढा नीलकण्ठवर्तिनी सभापतेः सर्वादेवाभिधस्य निवासे ह्य सम्पन्नेन दलस्य पदाधिकारिणाम् उपवेशेन संसद उपवेशमनु सम्भाव्यायाः स्थितेः अनुसारेण निर्णयं कर्तुं निष्कर्षः प्रकाशितोऽस्ति। सम्प्रति नेकपादलम् एकमेव दलम् अस्ति इति कारणेन नेकपादलं कथम् अग्रे वर्धते इति परिपक्वस्थितेः अभावात् नेपाली कांग्रेस दलेन हठात् कस्मै अपि समर्थनं न विधेयमिति निष्कर्ष प्रकाशित इति सहमहामन्त्री डा प्रकाश शरण महत ज्ञापितवान्। राष्ट्रिय सभायाः अध्यक्ष गणेश प्रसाद तिमलसिन्हा गदति संघीयतायाः इतोप्यधिकं प्रभावकारी क्रियान्वयनाय राजनीतिक प्राशासनिक वित्तीय दृष्ट्या प्रदेशैः स्थानीय स्तरैश्च आधिक्येन शक्तिशालीभिर्भाव्यम्। नेपाल जनप्रशासन संघस्य एकविंश्याः साधारण सभायाः पञ्चदश राष्ट्रिय सम्मेलनस्य च अवसरे ह्यः काष्ठमण्डपे आयोजितायां नेपालस्य शासन प्रणाल्यां संघीयतायाः प्रभावः इति विषयिण्याम् अन्तरक्रियायाम् अध्यक्षः तिमल सिन्हा एवं अगदत्। संचार सूचना प्रविधि मन्त्री पार्वत गुरूङ कथयति सर्वकारः कस्मिन्नपि विषये विचलितो न भवति। साधना कला केन्द्रेण नेपाल सांगीतिक संघेन च वरिष्ठ संगीतकारस्य स्वर्गीयस्य अम्बर गुरूङ इत्यस्य 83तम्याः जन्मजयन्त्याः अवसरे ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे असौ अवोचत् वर्तमान सर्वकारः कस्मिन्नपि विषये विचलनेन विना कार्यं विदधाति। नगरीय विकास मन्त्री प्रभु शाह वदति विकासस्य मुख्य बाधको भ्रष्टाचार राजनीतिकी अस्थिरता च स्तः। असौ नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य वर्तमान सर्वकारं पातयितुं चलखेलो विहित इत्यारोपयत। पर्सा जनपदे नेकपा दलस्य छिपहामाई ग्रामपालिका समित्या गतदिने आयोजिते अग्रणी कार्यकर्ती मेलने मन्त्री शाह अवदत् जनमतम् अपमान्य राष्ट्रस्य अस्थिरतां प्रति प्रापकैः जनैः जनतायाः समक्षं क्षमा याचितव्या। कृषि पशुपक्षी विकास मन्त्री पद्मा कुमारी अरियालः भाषते कृषक केन्द्रैका द्वार प्रणालीम् स्थापयितुम् पूर्व कार्यम् विहितम् वर्तते। पत्रकारैषा ह्यः काष्ठमण्डपे भाषमाणा मन्त्री अरियालः प्रविधेः प्रसारणम् हस्तान्तरण च महत्वपूर्णे स्तः इत्यतः प्रविधेः उपयोक्तृणाम् कृषकाणाम् संख्याम् वर्धाप्य कृषक केन्द्रैका द्वार प्रणाली संस्थाप्यते इति असूचयत्। नेपाले ह्य अतिरिक्तेषु द्वादशाधिक शतजनेषु कोरोना संक्रमणं पुष्टीभूतं वर्तते। एवमेव ह्य अतिरिक्तः चतुष्पञ्चाशत् जना कोरोना संक्रमणात् मुक्ताः अभवन्। ह्यस्तनावधि आराष्टं 37.9% कोरोना विषाणो सक्रिय संक्रान्ताः जनाः सन्ति। ह्य अतिरिक्ताः चत्वारो जनाः कोरोना संक्रमणेन मृताः इति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितं वर्तते। धम मासावधिकम् श्रीस्वस्थानि व्रतम् अद्य माघ शुक्ल पूर्णिमायाम् समापोन्मुखम् वर्तते। अद्यैव माघ माधव नारायण व्रतम् च पूर्णतामेति अद्य श्रीस्वस्थानि परमेश्वर्याः पूजाराधन पूर्वकम् व्रतम् समाप्यते। काष्ठमण्डपस्य उत्तर पूर्व भागवर्तिनी शाखुस्थाने समायोजिता मासव्यापिनी मेला च अद्य पूर्णा भवति। नेपालेन वन संरक्षणं कृत्वा उत्सर्जनं न्यूनीकृत्य पर्यावरण रक्षकांगार संचितिः वर्धापितेति हेतोः आसन्न 50,000 रूप्यकाणि प्राप्यन्ते। वन वातावरण मन्त्रालयस्य सचिवस्य डाक्टर विश्वनाथ ओलिनः विश्व कोषागारस्य देशीय निर्देशकस्य फरिस अदात जेर्बोस इत्यस्य च मध्ये गत बुधवासरे विहितायाः उत्सर्जन न्यूनीकरण क्रयण संविधायाः अनुसारेण नेपालेन वित्तमेतत् प्राप्य प्राप्स्यते। संविधायः अनुसारेण नेपालेन पश्चिम तराई जनपदानां वनेभ्यो 90,00,000 टन परिमितं पर्यावरण प्रतिकूलाङ्गारोत्सर्जनं न्यूनीकरिष्यते। एवं वन संरक्षणेन उत्सर्जनं न्यूनीकृत्य पर्यावरण रक्षकाङ्गार संचितेः वर्धनं विहितमिति हेतोः वित्तमेतत् प्राप्यमाणम् अस्ति इति मन्त्रालयेन ज्ञापितं वर्तते। नेपाल भारत जनपदस्तरीय सीमा सुरक्षा समन्वय समिति उपवेश भारतस्य झुलाघाटस्थाने सम्पन्नो वर्तते। उपवेशे अन्तर्देशीय सीमापराध सम्बद्धायाः अवैध शस्त्रास्त्र सामग्री नयनानयन नियन्त्रण सम्बद्धायाश्च सूचनायाः आदान प्रदानम् शान्ति सुरक्षा व्यवस्थापनम् चेति विषयेषु वयोपक्षयोर्मध्ये विमृष्टम् इति सहमति धृतेति भैतडी जनपदस्य प्रहरी प्रमुख प्रहरी नायब उपरीक्षक नारायण प्रसाद अधिकारी अबोधयत इति समाचारः।